सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. क्षमया दयया प्रेम्णा सुनृतेन आर्जवेन च वसीकुर्यात् जगत् सर्वं विनयेन च सेवया. इत्युक्ते अत्र श्लोके बहूनि पदानि तृतीयाविभक्त्यन्त रूपाणि सन्ति. क्षमया दयया प्रेम्णा सुनृतेन आर्जवेन विनयेन एतानि पदानि तृतीयाविभक्त्यन्तरूपाणि. परन्तु अत्र श्लोके एकम् अन्यं पदमपि अस्ति, वसीकुर्यात्. इत्युक्ते संस्कृतभाषायां दशलकाराः सन्ति, तेषु अन्यतमः विधिलिङ्गलकारः. विधिलिङ्गलकारः नाम्ना एकः लकारः अस्ति, तत्र वसीकुर्यात् इति पदमस्ति. वसीकुर्यात् इति पदं विधिलिङ्गलकाररूपम्. परन्तु अस्य अर्थः कः इत्युक्ते, एतेषाम् अत्र कानिचन लक्षणानि दत्तानि, एतेषां लक्षणानां साहाय्येन वयं सर्वं जगत् अस्माकं नियन्त्रणे आनेतुं शक्नुमः, अथवा एतैः लक्षणैः सह युक्तः पुरुषः सर्वदा सर्वं जगत् तस्य नियन्त्रणे आनेतुं शक्नोति. हि केन् कण्ट्रोल् द वर्ल्ड् वित् द हेल्प् आफ् दीस् ग्रेट् क्वालिटीस् इति अर्थः. एतेषां लक्षणानां साहाय्येन अहं सर्वं जगत् तस्य नियन्त्रणे आनेतुं शक्नोति इति अर्थः. परन्तु किमर्थं पठितवती इमं श्लोकम् इत्युक्ते, अद्यतन अस्माकं विषयः अस्ति तृतीयाविभक्तिः. अस्मिन् श्लोके बहूनि पदानि तृतीयाविभक्त्यन्तपदानि सन्ति, अतः पठितवती. गते सप्ताहे एव अयं विषयः आरब्धः. अद्य वयं सर्वे मिलित्वा इतोपि तृतीयाविभक्तेः विषये एव इतोपि अभ्यासान् कृत्वा अवगन्तुं प्रयत्नं कुर्मः. उत्तमं, सम्यक्. अनन्तरम् अत्र गृहपाठरूपेण अहं किञ्चित् प्रेषितवती. अत्र गृहपाठः कः इत्युक्ते, अत्र मित्रयोः सम्भाषणम्. अत्र कादम्बरी भगिनी अपि च राजीवसिंह महोदय सम्भाषणं पठन्तु. अत्र प्रथमं करपत्रं पश्यन्तु.
शिशिरः
शिशिरः अखिलयोः सम्भाषणं. भवान् शिशिरः अपि च कादम्बरी भगिनी अखिलः, सम्भाषणं पठन्तु.
अखिल, कोऽपि नास्ति किं गृहे?
अहम् एकः एव अस्मि, पिता अम्ब्यासः सङ्गीतकार्यक्रमं गतवान्.
भगिनी अत्र अम्बयासः, भवती जानाति एव अम्बा इत्युक्ते माता, अम्बया सह. पुनः एकवारं वाक्यं पठतु, पठतु.
अहम् एकः एव अस्मि, पिता अम्बया सह सङ्गीतकार्यक्रमं गतवान्. अग्रजा अरुणया सह चित्रमन्दिरं गतवती. अनुजः बालैः सह क्रीडति.
पठतु महोदय, भवान् पठतु.
भवन्तं विना सर्वेपि गतवन्तः. भवान् मया सह आगच्छतु. मम माता आपणं गत्वा पुष्पाणि आनयतु इति उक्तवती। अहं स्यूतेन विना एव आगतवान्।
चिन्ता मास्तु, अहं स्यूतं ददामि। धनेन विना आगतं वा इति पश्यतु।
तिष्ठतु, प्रथमं धनमस्ति वा इति पश्यामि। किञ्चित् जलं ददातु भौ।
आम्, स्वीकरोतु, तिष्ठतु, कापीं करोतु। कापीं करोमि, भवान् शर्करया विना कापीं पिबति उत शर्करया सह?
अहं शर्करया सह एव पिबामि, किन्तु मास्तु, इदानीं भवतः किमर्थं क्लेशः?
क्लेशः नास्ति, ममापि कापीं समयः एषः। तिष्ठतु, मया सह कापीं पिबतु।
अत्र भगिनि किञ्चित् अवगतं वा अभ्यासम्, अत्र सम्भाषणं किञ्चित् अवगतं वा? भवती अवगतवती वा? नो चेत्
वयं
किञ्चित् अवगतवती। महोदय, भवान् अवगतवान् वा किञ्चित्?
किञ्चित्।
उत्तमम्। अधुना किं कुर्मः इत्युक्ते, एकमेकं वाक्यं स्वीकृत्य पङ्क्तिशः पश्यामः। भगिनी, प्रथमं वाक्यं पठतु अत्र पुनः एकवारम्।
अखिल, कोऽपि नास्ति किं गृहे?
अवगतं खलु? मित्रयोः, अत्र शीर्षिका अस्ति मित्रयोः सम्भाषणम्। अत्र मित्रयोः, वदतु विभक्तिः, वदतु विभक्तिः, वचनं वदतु।
तृतीया विभक्ति
मित्रयोः। महोदय, भवान् वदतु।
मित्रयोः,
ऊहां करोतु, ऊहां करोतु। सुन्दरं, सुन्दरं। भवती कथं जानाति भगिनि, वदतु। वदतु। इत्युक्ते अत्र शिशिरः अखिलस्य मित्रम्। अत्र मित्रद्वयमस्ति, अतः मित्रयोः सम्भाषणं षष्ठीविभक्तिः अस्ति, परन्तु द्विवचने अस्ति। अत्र मित्रम् इति शब्दस्य षष्ठीविभक्त्यन्तरूपाणि कानि वक्तुं शक्नोति वा? मित्रस्य, मित्रयोः, मित्राणां, तदा भवति मित्राणाम् इत्यस्मिन् पदे अणकारः आगच्छति। उत्तमम्। इत्युक्ते शीर्षिका अस्ति मित्रयोः सम्भाषणम्। अत्र अखिल इति लिखितमस्ति, किमर्थं तथा लिखितमस्ति भगिनी वदतु?
सम्भाषणं,
सम्बोधनं। सुन्दरं, सुन्दरं, सुन्दरम्। अखिल, कोऽपि नास्ति किं गृहे? सः पृष्टवान्, शिशिरः अखिलं पृष्टवान्, कोऽपि नास्ति किं गृहे? अत्र कोऽपि इति पदमस्ति, वयं पूर्वमेव पठितवन्तः कोऽपि इति पदं। तस्मिन् पदे अत्र पदद्वयमस्ति, कः प्लस् अपि, अत्र सन्धित्रयमस्ति। संस्कृतभाषायां सन्धयः सन्ति, परन्तु अत्र सन्धित्रयमस्ति, विसर्गसन्धिः, गुणसन्धिः, अपि च पूर्वरूपसन्धिः नाम्ना सन्धित्रयमस्ति। परन्तु प्रथमं वाक्यं सुलभमेव, भवती अवगतवती। द्वितीयं वाक्यं भवान् पठतु महोदय।
अहम् एकः एव अस्मि।
इत्युक्ते अहम् एकः एव अस्मि गृहे.
इत्युक्ते
गृहे अधुना तत्र शिशिरः अखिलं प्रति पृच्छति, कोऽपि नास्ति किं गृहे? तदा अखिलः वदति, अहम् एकः एव अस्मि अधुना. इत्युक्ते किम्?
एकः एव अस्मि.
भगिनी कादम्बरी भगिनी वदतु.
आं भगिनि
वदतु.
किं भगिनि?
अहम् एकः एव अस्मि इत्युक्ते किम्? आङ्ग्लभाषायाम् अनुवादं कृत्वा वदतु.
I am the only one here.
उत्तमम्. अपि च पिता अम्बया सह सङ्गीतकार्यक्रमं गतवान्. अत्र महोदय भवान् वदतु, पिता कुत्र गतवान्? सङ्गीतकार्यक्रमं गतवान्. परन्तु अत्र कार्यक्रमम् इति पदं द्वितीयाविभक्त्यन्तरूपं, प्रथमाविभक्त्यन्तरूपं किं भवितुम् अर्हति वदतु.
सङ्गीतकार्यक्रम
प्रथमाविभक्त्यन्तरूपं किं भवितुम् अर्हति? कार्यक्रमः. किमर्थं चेत् कार्यक्रमः इति पदं पुंलिङ्गपदं, परन्तु अत्र द्वितीयाविभक्तौ अस्ति. अपि च पिता सङ्गीतकार्यक्रमं गतवान्. कया सह गतवान्?
अम्बया सह गतवान्.
अम्बया सह गतवान्. अम्बा इति पदस्य तृतीयान्तं रूपं किम्?
तृतीयाविभक्ति एकवचनम् अम्बया.
अम्बया. उत्तमम्. इत्युक्ते अत्र तृतीयाविभक्तेः उपयोगं कुत्र कुत्र भवति इति अत्र प्रश्नः अस्ति. कुत्र भवति? साधारणतया यदा कदापि उपकरणं केन सह लिखामि, अत्र उपकरणमस्ति चेत् तृतीयाविभक्तेः उपयोगं कुर्मः. अथवा सः इति उपपदं योजयामश्चेत् तदापि तृतीयाविभक्तिः भवति. अथवा विना इति पदं योजयामश्चेदपि तृतीयाविभक्तिः भवति. अत्र सः इति पदम् अस्ति इति कृत्वा अम्बया इति तृतीयाविभक्त्यन्तं रूपं योजितमस्ति. अवगतवान् वा? पिता अम्बया सह सङ्गीतकार्यक्रमं गतवान्. अनन्तरम् अग्रजा अरुणया सह चित्रमन्दिरं गतवती. चित्रमन्दिरं का गतवती?
अरुणया सह.
कया सह गतवती इत्युक्ते अरुणया सह, परन्तु का गतवती?
चित्रमन्दिरं गतवती.
कुत्र गतवती इति प्रश्नं पृच्छामि चेत् चित्रमन्दिरं गतवती, परन्तु का गतवती? Who went?
अग्रजा
इत्युक्ते का?
Elder sister.
सुन्दरम्. इत्युक्ते अत्र अखिलः वदति, अहम् एकः एव अस्मि अधुना, पिता अम्बया सह सङ्गीतकार्यक्रमं गतवान्, अग्रजा अरुणया सह चित्रमन्दिरं गतवती, अपि च अनुजः बालैः सह क्रीडति. अखिलस्य अनुजः अस्ति, सः किं करोति अधुना?
सः क्रीडति.
कैः?
बालैः सह क्रीडति.
अत्र बालैः पदस्य तस्मिन् विषये वदतु महोदय, रूपं किं, लिङ्गं किं, वचनं किम्?
पुल्लिङ्ग, तृतीयाविभक्ति, बहुवचनं.
सुन्दरम्. अत्र अखिलस्य अनुजः अधुना बालैः सह बहिः क्रीडति. अग्रिमं वाक्यं कादम्बरी भगिनी भवती पठतु. अग्रिमं वाक्यं भगिनि अस्ति वा?
भवन्तं विना सर्वेपि गतवन्तः. भवान् मया सह आगच्छतु. मम माता आपणं गत्वा पुष्पाणि आनयतु इति उक्तवती उक्तवती अहं स्यूतेन विना एव आगतवान्।
अधुना शिशिरः वदति भवन्तं विना सर्वे गतवन्तः इति शिशिरः वदति भवन्तं विना। अत्र पश्यतु विना इति पदं योजितमस्ति। विना इति पदं साधारणतया तृतीया विभक्तौ भवति अपि च पञ्चमी विभक्तौ अपि भवितुमर्हति अपि च तृतीया विभक्तौ अपि भवति। अत्र अस्मिन् वाक्ये विना शब्दः द्वितीया विभक्तौ अस्ति। भगिनी अत्र भवन्तम् इति पदमस्ति, जानाति वा तस्य रूपं किम्?
द्वितीया विभक्ति
कस्य पदस्य?
भवान्।
सुन्दरं, भवान् शब्दस्य द्वितीयान्तं रूपं भवन्तम्। सो अधुना शिशिरः वदति भवन्तं विना सर्वे अपि गतवन्तः, भवान् मया सह आगच्छतु। भवान् गृहे एकः एव अस्ति, तदर्थम् अधुना भवान् मया सह आगच्छतु इति वदति। अत्र मया सह तस्मिन् विषये राजीवसिंह महोदय वदतु, मया सह आगच्छतु इत्युक्ते किम्? मया सह रूपं भवान् जानाति चेत् अहम् इति पदमस्ति संस्कृतभाषायाम्। अहम् अहं शब्दः अस्मत् शब्दः इति वदामः, अस्मत् शब्दः। तत्र प्रथमान्तं रूपमस्ति अहम्, अहं शब्दस्य तृतीया रूपं किं? मया। अहं शब्दस्य तृतीयान्तं रूपं मया। भवान् मया सह आगच्छतु इत्युक्ते किम्? आङ्ग्लभाषां वदतु महोदय, अनुवादं करोतु।
You can come with me.
सुन्दरम्, अपि च मम माता आपणं गत्वा पुष्पाणि आनयतु इति उक्तवती। वयं पूर्वमेव पठितवन्तः इति पदस्य विषये। अधुना शिशिरः वदति शिशिरस्य माता किम् उक्तवती? आपणं गत्वा पुष्पाणि आनयतु इति तस्य माता उक्तवती, तदर्थं सः अत्र आगतवान्। अहं स्यूतेन विना एव आगतवान् इति शिशिरः वदति। स्यूतेन विना अहम् आगतवान् इत्युक्ते किं महोदय?
I came without a bag.
उत्तमम्, इत्युक्ते शिशिरः स्यूतेन विना आगतवान्। अत्रापि पश्यतु अत्र विना इति पदं योजितमस्ति, पूर्वम् अपि विना पदमस्ति, अत्रापि विना इति पदमस्ति, परन्तु भवन्तं विना तत्र विना इति शब्दः अत्र द्वितीयाविभक्ति द्वितीयाविभक्तौ अपि विना इति पदं योजयितुं शक्नुमः। अत्र तृतीयाविभक्तौ अस्ति स्यूतेन विना, परन्तु भवन्तं विना तत्र उपपदद्वितीया इति वदामः, परन्तु स्यूतेन विना इत्युक्ते उपपदतृतीया इति वदामः। इत्युक्ते विना इति पदं त्रिषु विभक्तिषु भवति, द्वितीया तृतीया अपि च पञ्चमी विभक्तो भवति, अतः अत्र तृतीयायाम् अस्ति। अहं स्यूतेन विना एव आगतवान्। अग्रिमं वाक्यं भवान् पठतु महोदय, राजेश महोदय।
चिन्ता मास्तु अहं स्यूतं ददामि। धनेन विना आगतं वा इति पश्यतु।
अत्र चिन्ता मास्तु अहं स्यूतं ददामि, सः कस्मै ददाति स्यूतं?
अहं स्यूतं ददामि,
स्यूतं ददामि इति अखिलः वदति, परन्तु सः स्यूतं कस्मै ददाति?
To whom he'll
give the bag?
शिशिरः
कथं वक्तव्यम् इत्युक्ते शिशिराय ददाति चतुर्थिविभक्तौ चतुर्थिविभक्तौ वक्तव्यं सः स्यूतं
ददाति
उत्तमम् इत्युक्ते अत्र अखिलः वदति अहं स्यूतं ददामि इति वदति परन्तु कस्मै ददाति
शिशिराय
ददाति शिशिराय ददाति किं ददाति
अखिल
किं किं
किं स्यूतं
सुन्दरं स्यूतं ददाति कः ददाति अखिलः ददाति कः ददाति अखिलः ददाति किं ददाति स्यूतं ददाति कस्मै ददाति शिशिराय ददाति उत्तमम् अनन्तरं धनेन विना आगतं वा इति पश्यतु सः स्यूतं विना आगतवान् परन्तु धनं नास्ति चेत् कः किं क्रेतुं शक्नोति स्यूतः नास्ति चेत् सम्यक् एव परन्तु धनं नास्ति चेत् कथं क्रेतुं शक्नोति सः तस्य माता वदति आपणं गत्वा पुष्पाणि आनयतु इति सा उक्तवती परन्तु सः विस्मृतवान् किं विस्मृतवान् स्यूतं विस्मृतवान् हि फर्गाट् टु ब्रिङ्ग् द बेग् परन्तु धनेन विना आगतं वा इति पश्यतु इति अखिलः वदति धनम् अस्ति वा धनं नास्ति वा धनं नास्ति चेत् कथं क्रेतुं शक्नोति भवान् अतः धनेन विना आगतं वा भवान् इति अखिलः वदति अनन्तरम् अत्र भगिनी भवती पठतु अग्रिमं वाक्यं कादम्बरी भगिनी
चिन्ता मास्तु अहं स्यूतं ददामि धनेन विना आगतं वा इति पश्यतु
तदाभवत् अग्रिमं वाक्यं
तिष्ठतु प्रथमं धनमस्ति वा इति पश्यामि किञ्चित् जलं ददातु भोः
अवगतवती वा प्रथमं धनमस्ति वा इति पश्यामि इत्युक्ते अखिलः वदति धनेन विना भवान् आगतवान् वा धनं नास्ति चेत् कथं क्रेतुं शक्नोति अतः प्रथमतया पश्यतु तत्र भवतः पार्श्वे धनमस्ति वा इति पश्यतु इति सः वदति तदा शिशिरः किं वदति वदतु भगिनि
स्वीकरोतु
न न सः किं वदति किम् उत्तरं ददाति प्रथमतया धनमस्ति वा वदतु
किञ्चित् जलं ददातु भोः
इति सः वदति अत्र पश्यतु जलम् इति पदं नपुंसकलिङ्गपदम् अतः किञ्चित् इति वदामः पदं नपुंसकलिङ्गपदम् अस्ति चेत् किञ्चित् पदं पुंलिङ्गपदम् अस्ति चेत् कश्चित् इति वदामः पदं स्त्रीलिङ्गपदमस्ति चेत् काचित् इति वदामः इत्युक्ते अत्र जलम् इति पदस्य विशेषणं किञ्चित् इत्युक्ते संस्कृतभाषायां विशेषणपदानि नामपदम् अत्र विशेषणपदानि विशेष्यम् अनुसृत्य विशेषणं भवति इत्युक्ते विशेष्यपदस्य यल्लिङ्गं यद्वचनं या च विभक्तिः अस्ति विशेषणपदस्य अपि तादृशरीत्या एव भवति अत्र जलमिति पदं नपुंसकलिङ्गपदम् इति कृत्वा अत्र किञ्चित् जलं ददातु भोः इति सः वदति अनन्तरम् अत्र अग्रिमं वाक्यमपि भवती एव पठतु भगिनि
स्वीकरोतु तिष्ठतु कापीं करोतु कापीं करोमि भवान् शर्करया विना कापीं पिबति उत शर्करया सह.
अत्र पश्यतु, शर्करया विना, शर्करया सह इति दत्तमस्ति. इत्युक्ते अत्र पदमस्ति, भवती ऊहं कर्तुं शक्नोति वा भगिनि, अत्र शर्करया इति पदस्य विभक्तिः का?
तृतीया विभक्ति.
किमर्थम्?
या विना अस्ति.
सुन्दरम्. इत्युक्ते विना इति पदमस्ति, तदर्थं तत्र तृतीया विभक्तिः अस्ति. परन्तु प्रथमविभक्त्यन्तं रूपं किं भवितुमर्हति, ऊहं करोतु. वदतु महोदय.
शर्करा.
सुन्दरं. शर्करा दीर्घ आकारान्तपदं, यथा सीता पदमिव शर्करा. शर्करा इति आकारान्तस्त्रीलिङ्गपदम्, अतः तृतीयान्तं रूपमस्ति शर्करया. शर्करया विना अथवा शर्करया सह, सह अपि च विना, एतत् पदम् एतौ द्वौ पदौ अपि उपपदौ इति वदामः. उपपदे एव, इत्युक्ते तेषां योजनेन तृतीयाविभक्तिरूपं सम्भवति. अतः अत्र अखिलः वदति, तिष्ठतु भोः किञ्चित् कालं, काफीं करोमि. भगिनि अत्र वदतु, काफीम् इति पदमस्ति, किमर्थं काफीं? वयं साधारणतया काफी इति वदामः, परन्तु अत्र काफीम् इति दत्तमस्ति, किमर्थम्? भवान् वदतु महोदय, नो चेत्.
द्वितीयविभक्ति.
द्वितीयविभक्ति किमर्थम्?
एकवचन.
किमर्थम् इत्युक्ते अत्र कारणमस्ति. कारणं किं? करोमि इति पदं क्रियापदमस्ति. तस्मिन् वाक्ये करोमि इति पदं क्रियापदं, क्रु इति धातुतः करोमि इति क्रियापदम् आगतं. क्रू धातुः सकर्मकधातुः, अतः तत्र कर्मपदं सम्भवति. तदर्थमेव अहं काफीं करोमि. भवान् तिष्ठतु अत्र. अपि च भवान् शर्करया विना काफीं पिबति वा, नो चेत् शर्करया सह पिबति वा इति अर्थः. अत्र ऊता इति पदमस्ति. ऊता इत्युक्ते किम्?
ओर्
वा, वयं जानीमः वा इति पदं, वा इत्युक्ते उत इत्युक्ते ऐदर् आर्, ईदर् आर् इति वदामः आङ्ग्लभाषायां. शर्करया विना काफीं पिबति वा, शर्करया सह पिबति वा भवान् इति सः पृष्टवान्. तदा उत्तरं किं उक्तवान् सः शिष्यः, किं वदति, वदतु.
अहं शर्करायाः सह एव पिबामि. I only take with sugar.
उत्तमम्. अहं शर्करया सह एव काफीं पिबामि. किन्तु मास्तु भोः, इदानीं भवतः किमर्थं क्लेशः इत्युक्ते किम्?
इदानीं भवतः किमर्थं क्लेशः? Is there any problem? Is there any problem?
न न, अत्र भवतः क्लेशः किमर्थं? कादम्बरी भगिनी भवती वक्तुं शक्नोति वा अत्र भवतः इति रूपं किम्?
भवतः षष्टिविभक्ति.
सुन्दरं. अस्माकं प्रथमः पाठः एव सः. भवतः नाम किं महोदय, वदतु. वदतु, किं वदामः, भवतः नाम किम्?
अखिलः.
न न, अहं पृच्छामि, भवन्तं पृच्छामि, भवतः नाम किं? वयं जानीमः एव, अस्माकं प्रथमः पाठः एव भवतः नाम किम्. अत्र भवतः, यथा अत्र कादम्बरी भगिनी उक्तवती, अत्र भवतः इति पदं षष्टिविभक्ति एकवचनरूपम्. अत्र शिष्यः वदति मास्तु भोः इदानीं काफ़ीं मा करोतु, अहं न इच्छामि, पातुं न इच्छामि. भवतः कृते किमर्थं क्लेशः? क्लेशः इत्युक्ते कष्टं किं भवतः कृते? अहं शर्करया सह एव पिबामि, परन्तु काफ़ीं मा करोतु इति सः उक्तवान्. ऐ डोण्ट् वाण्ट् टु पोस् ए प्राब्लम् फर् लैक् देट्. अनन्तरम् अन्तिमं वाक्यं भवान् एव करोतु.
क्लेशः नास्ति, नो प्राब्लम्. ममापि काफी समयः एषः तिष्ठतु, मया सह काफीं पिबतु.
उत्तमं. मम कृते अत्र क्लेशः किमपि नास्ति. ममापि काफी समयः एषः, अत्र पश्यतु ममापि इति पदमस्ति. ममापि अस्मिन् पदे पदद्वयम् अस्ति. पदद्वयं किम् ऊहां करोतु.
शिशिरः अखिल
न इन् दिस् वर्ड् ममापि. इन् दिस् वर्ड् देर् आर् टु डिफ़्रेण्ट् वर्ड्स्. मम प्लस् अपि. उत्तमं. वयं पूर्वमेव पठितवन्तः अपि इत्यस्मिन् विषये. मम अपि ममापि इति भवति. अत्र सन्धिः अस्ति. सन्धेः नाम अस्ति सवर्णदीर्घसन्धिः इति वदामः. ममापि काफ़ी समयः एषः, तिष्ठतु भोः, मया सह काफ़ीं पिबतु. मया सह पुनः आगतम् एतदे अत्र मया इति पदं पुनः एकवारं द्विवारम् आगतं, द्वितीयवारम् आगतम् अत्र मया सह. भगिनी वदतु अत्र मया इति पदस्य रूपं किम्? अहं शब्दस्य तृतीयारूपम्. उत्तमं. तृतीयारूपं किमर्थम् भवती जानाति एव, वदतु. अत्र मया सह इति पदम् अस्ति, तदर्थम् अत्र तृतीयान्तरूपं लिखितमस्ति. मया सह काफीं पिबतु इत्युक्ते किं? भवान् आङ्ग्लभाषायां वदतु महोदय, अस्य अर्थः कः, वाक्यस्य अर्थः? काफीं पिबतु.
With me coffee.
Drink a coffee.
Drink coffee with me.
उत्तमं. तिष्ठतु भोः, मा गच्छतु. अत्र एव किञ्चित् कालं तिष्ठतु, अहं काफीं करोमि, मया सह काफीं पिबतु इति अखिलः उक्तवान्. इत्युक्ते अस्मिन् सम्भाषणे किम् अस्ति इत्युक्ते बहूनि पदानि तृतीयान्तानि रूपाणि सन्ति, परन्तु अत्र अस्मिन् सम्भाषणे उपकरणं नास्ति. यथा वयं पूर्वं पठितवन्तः तत्र लेखन्या लिखामि अथवा द्विचक्रिकया गच्छामि, तथा नास्ति अत्र. अत्र तृतीयाविभक्तिः अस्ति, परन्तु कारणं भिन्नमस्ति. कारणं किम् इत्युक्ते उपपदानि सन्ति. उपपदानि कानि? सः, अपि च विना इति उपपदानि सन्ति इति कारणतः अत्रापि तृतीयाविभक्तिः सम्भवति. अधुना अवगतं वा भगिनी सम्भाषणम्? महोदय, भवान् अवगतवान् वा?
भगिनी.
उत्तमम्. अनन्तरं विलम्बेन के के आगतवन्तः अत्र, नाम उच्यताम् एकवारम्. नाम वदतु. उमाशङ्करमहोदय. अस्तु, विलम्बेन आगतवान् वा? अस्तु. अनन्तरम् अत्र भावना भगिनी अपि अस्ति. भवती अपि भागं वोढुम् इच्छति वा भगिनी? भवती पठितुं शक्नोति वा भावना भगिनी?
रीडिङ्ग्.
Can you read it? भवती पठितुं शक्नोति वा? शक्नोति चेत् भवती किं करोति, किं करोति इत्युक्ते, अत्र द्वितीयं करपत्रमस्ति, सर्वे एकवारं द्वितीयं करपत्रं पश्यन्तु. अत्र द्वितीयं करपत्रं किम् इत्युक्ते, तत्र भाववाच्यकानां शब्दानाम् अपि तृतीया विभक्तिः भवति. सर्वे तृतीयं करपत्रं पुरतः स्थापयन्तु. Keep the second worksheet in front of you.
Yes, I am. You want me to read?
Astu. Pratham pathatu bhagini.
Akhila ke gapi
na bhagini. Atra dvitiyam karapatram bhavavachaka shabdanam api tritiya vibhakti hi bhavati. Umashankar mahodaya, bhavatah parshve asti va?
आं भगिनि,
करोतु, भवान् पठतु.
भावसूदकायां शब्दानाम् अपि तृतीया भवति.
अत्र पश्यतु, भावसूचकानां भावसूचकानां शब्दानाम् अपि तृतीया भवति. अत्र भावसूचकानां शब्दानां इति पदद्वयमस्ति. भवान् वक्तुं शक्नोति वा भावसूचकानाम् इति पदस्य विभक्तिः लिङ्गं वचनं वदतु. ऊहां करोतु. अत्र कादम्बरी भगिनी वदतु.
शब्दमिति
न महोदय, न कः वदति?
बहुवचनं.
सुन्दरं, राजीवसिंह महोदय. इतोपि अत्र 703-703-810 दूरवाणीसङ्ख्या अस्ति. कस्य दूरवाणीसङ्ख्या?
भावना भगिनी, चेञ्ज् द नम्बर्.
अस्तु अस्तु, 703. उत्तमम्. अत्र भावसूचकानां शब्दानाम् अपि तृतीया भवति. इत्युक्ते वयम् इदानीं पर्यन्तं किं पठितवन्तः, यदि उपकरणमस्ति चेत् तृतीया विभक्तिः भवति, अथवा सः विना इति पदद्वयमस्ति चेदपि तृतीया विभक्तिः भवति, अपि च कुत्र कुत्र अन्यत्र कुत्र तृतीया विभक्तिः भवति, अन्यत्र अन्येषु स्थलेषु कुत्र कुत्र तृतीया विभक्तिः भवति. इत्युक्ते संस्कृतभाषायां कानिचन पदानि सन्ति. पदानि कानि इत्युक्ते, क्रोधः, कष्टं, भयं, दुःखम्, आनन्दम्, एतानि पदानि भाववाचकपदानि इति वदामः. भाववाचकपदानाम् अपि तृतीया भवति इति अत्र लिखितमस्ति. उदाहरणं पठतु महोदय.
बालकः सन्तोषेण क्रीडितुं गतवान्.
अत्र सन्तोषः इति पदमस्ति संस्कृतभाषायां. सन्तोषः इति पदस्य तृतीयान्तं रूपं सन्तोषेण. अत्र साधारणतया वयं किं पठितवन्तः, अत्र सन्तोषेण इति दत्तमस्ति. किमर्थं णत्वमस्ति वदतु. वयं पूर्व गतसप्ताहे वयं चर्चितवन्तः तस्मिन् विषये. किमर्थं सन्तोषेण? उत्तमम् उत्तमम्. इत्युक्ते अत्र अस्मिन् पदे मूर्धन्य षकारः अस्ति. तस्य नाम अस्ति मूर्धन्यषकारः. यदि एकस्मिन् एव पदे मूर्धन्यषकारः अस्ति अपि च नकारः अस्ति चेत् सः नकारः मूर्धन्यणकारः भवति. नकारस्य स्थाने भवति. तदर्थमेव अत्र सन्तोषेण क्रीडितुं गतवान्. बालकः सन्तोषेण क्रीडितुं गतवान्. अत्र क्रीडितुम् इति एकं पदमस्ति. तस्य नाम अस्ति तुमुन्नन्तं रूपं इति वदामः. परन्तु अभ्यासपुस्तके एव वयं सर्वे अग्रे गत्वा तुमुन्नन्तपदानां विषये पठिष्यामः. तुमुन्नन्तं रूपं कुत्र आगच्छति इत्यस्मिन् विषये अग्रे गत्वा वयं पठिष्यामः. परन्तु इदानीं तृतीयाविभक्तेः विषये पठामः. अभ्यासः, अत्र अन्यं वाक्यमस्ति, भवान् करोतु महोदय.
अभ्यासय वाक्यस्य अन्ते दत्तस्य शब्दस्य तृतीया विभक्त्यन्तरूपेण
स्थानानि
पूरयत.
वाक्यम् अवगतं वा? अत्र किं दत्तमस्ति, वाक्यस्य अन्ते प्रत्येकं वाक्यस्य अन्ते दत्तस्य शब्दस्य तृतीयाविभक्त्यन्तरूपेण रिक्तस्थानानि पूरयत इति दत्तमस्ति. परन्तु अत्र पूरयत इति पदमस्ति. पूरयत इति पदस्य रूपं कोऽपि जानाति वा? न महोदय. कादम्बरी भगिनी, भवती जानाति वा, श्रुतवती वा?
किं भगिनि?
पूरयत इति पदस्य रूपं किम्? अत्र महोदय, अत्र पश्यतु, पूरयत इति पदमस्ति. पूरयत इति पदं क्रियापदं. साधारणतया नामपदानां कृते विभक्तयः सन्ति. क्रियापदानां कृते प्रथमपुरुष एकवचनं, द्विवचनं, बहुवचनं, मध्यमपुरुष एकवचनं, द्विवचनं, बहुवचनं, उत्तमपुरुष एकवचनं, द्विवचनं, बहुवचनरूपाणि भवन्ति. तथा इत्युक्ते अत्र शब्दः अस्ति महोदय, अत्र किञ्चित् वदामि. अत्र पदमस्ति पूरयति इति पदमस्ति. परन्तु पूरयति इति पदस्य मध्यमपुरुष बहुवचनरूपं पूरयत क्रियापदम्. वाक्यस्य अन्ते दत्तस्य शब्दस्य इत्युक्ते अत्र वाक्यानि सन्ति, कानिचन वाक्यानि. प्रत्येकं वाक्यस्य अन्ते एकं पदमस्ति. तस्य पदस्य तृतीयाविभक्त्यन्तरूपं योजयित्वा पुनः वाक्यं रिक्तस्थाने पदं लिखित्वा पुनः एकवारं वाक्यं पठामः अधुना. भवान् करोतु महोदय. उमाशङ्करमहोदय, अत्र उदाहरणत्वेन वाक्यद्वयं दत्तमस्ति. देर् आर् टु एक्साम्पल्स् गिवन् हियर्. पठतु महोदय. उमाशङ्करमहोदय पठतु.
सः काफिं करोति स्म परिष्मग, इन् द ब्राकेट् परिष्मग. सः परिष्मेण काफिं
अत्र पश्यतु महोदय, अत्र पदमस्ति कृषिं. इत्युक्ते अत्र सः कृषिं करोति स्म इति दत्तमस्ति. अत्र आवरणे किं दत्तमस्ति, परिश्रमः इति पदमस्ति. परिश्रमः इति पदस्य तृतीयान्तं, क्षम्यताम्, अत्र एकमेव उदाहरणं दत्तमस्ति. परिश्रमः इति पदस्य तृतीयान्तं रूपं लेखनीयम्. वदतु.
सः परिश्रमेण कृषिं करोति स्म.
परिश्रमेण इति पदमस्ति. परिश्रमेण इति पदस्य रूपं किम्?
तृतीया विभक्ति.
तत्र णत्वं किमर्थं? णत्वं किमर्थं?
श्र भवन्ति.
इत्युक्ते रकारः अथवा रेफः अस्ति. अतः परिश्रमेण कृषिकार्यम् इत्युक्ते किं महोदय, वदतु. कृषि इत्युक्ते अत्र एग्रिकल्चर् इति
वदामः.
कृषि इत्युक्ते अग्रिकल्चर् इति वदामः. भवान् प्रथमवाक्यं भवान् करोतु, परन्तु अत्र अभ्यासः कः इत्युक्ते भाववाचकपदानि सन्ति चेदपि वाक्ये तदा तृतीयाविभक्तेः उपयोगं कुर्मः इति अत्र दत्तमस्ति. अस्मिन् प्रथमं वाक्यं पठतु.
माता बालकं ताडितवती. माता क्रोधेन बालकं ताडितवती.
अस्मिन् वाक्ये भाववाचकपदं किं?
क्रोधः.
क्रोधः अत्र तृतीयान्तं रूपम् अस्ति. तृतीयान्तं रूपं तत्र णत्वम् अस्ति वा न वा?
णत्वं नास्ति.
किमर्थं नास्ति?
द क्रोधेन.
सुन्दरम् इत्युक्ते अत्र किं वदामः इत्युक्ते अत्र क्रोधः इति पदं पश्यन्तु. अत्र क्रोधः इति पदं पश्यामश्चेत् तत्र रेपः अस्ति, परन्तु रेपस्य अनन्तरं बाधकवर्णः अस्ति. धकारः, धकारः बाधकवर्णः. यदि बाधकवर्णः अस्ति चेत् तत्र रेपः निमित्तमस्ति चेदपि णत्वं न भवति. तदर्थं रूपं किं भवति?
क्रोधेन.
सुन्दरं सुन्दरं. द्वितीयं वाक्यं करोतु.
निर्धनः धनं सम्पादयति. निर्धनः कष्टेन धनं सम्पादयति.
उत्तमं. कष्टं, कष्टम् इति पदं भाववाचकपदम्, अपि च तृतीयान्तं रूपं कष्टेन. अत्र णत्वम् अस्ति वा न वा?
णत्वं नास्ति.
किमर्थम्?
पादक टायसपादकम्.
टकारः, टकारः बाधकवर्णः अतः. उत्तमम् उत्तमं महोदय. तृतीयं करोतु.
व्याघ्रं दृष्ट्वा दष्टापान्तः कम्येते स्म.
अत्र पश्यतु महोदय, अत्र पश्यतु. प्रथमं पदमस्ति व्याघ्रं. व्याघ्रम् इति पदमस्ति. व्याघ्रः अत्र द्वितीयान्तं रूपम् अस्ति, परन्तु प्रथमाविभक्त्यन्तरूपं व्याघ्रः. व्याघ्रः इत्युक्ते कः? कोऽपि वदतु.
टैगर्.
टैगर् उत्तमं. व्याघ्रः इत्युक्ते टैगर्, परन्तु अत्र द्वितीयान्तं रूपमस्ति व्याघ्रं. द्वितीयाविभक्त्यन्तरूपम् अस्ति. किमर्थमस्ति इत्युक्ते अत्र दृष्ट्वा इति पदमस्ति. दृष्ट्वा इति पदं त्वा प्रत्ययान्तरूपं. यदि यदा कदापि त्वा प्रत्ययान्तरूपं वाक्ये अस्ति चेत् त्वा प्रत्ययान्तरूपं कर्मपदं स्वीकरोति. अतः अत्र व्याघ्रम् इति द्वितीयाविभक्त्यन्तरूपं दत्तमस्ति. व्याघ्रं दृष्ट्वा अत्र पान्धः इति दत्तमस्ति. पान्धः इत्युक्ते कः महोदय? पान्थः. पान्थः इत्युक्ते कोऽपि वदतु, कोऽपि वदतु.
ट्रावेलर्.
सुन्दरं सुन्दरं सुन्दरं. ट्रावेलर् इत्युक्ते अत्र संस्कृतभाषायाम् एकं पदमस्ति पन्था. पन्था इत्युक्ते मार्गः. पन्था इत्युक्ते मार्गः. यः तत्र पन्थायां गच्छति सः पान्थः. अत्र व्याघ्रं दृष्ट्वा पान्थः कम्पते स्म. अत्र कम्पते इति पदं क्रियापदम्. अत्र क्रियापदं, परन्तु क्रियापदं कम्पते इति पदम् आत्मनेपदी इति वदामः. संस्कृतभाषायां क्रियापदानि सन्ति. क्रियापदानि द्विप्रकारकाणि. देर् आर् टु डिफ्रेण्ट् टैप्स् आफ् वर्ब्. आत्मनेपदिनः, परस्मैपदिनः. अत्र सम्पादयति इति पदमस्ति. सम्पादयति इति पदं परस्मैपदी रूपं क्रियापदम्. परन्तु कम्पते आत्मनेपदिरूपम्. अत्र पुनः एकवारं वाक्यं पश्यामश्चेत् व्याघ्रं दृष्ट्वा पान्थः कम्पते स्म. अत्र रूपपर आवरणे दत्तं, आवरणे पदं दत्तमस्ति, तस्य परिवर्तनं कृत्वा वदतु महोदय.
भयमेन कम्पते स्म.
न महोदय, सम्यक् वदतु रूपं किम्.
रूपं भयं नपुंसकलिङ्गं.
नपुंसकलिङ्गं तस्य रूपं तृतीयविभक्तौ किं भवति?
नयम्या
नपुंसकलिङ्गपदम्. अतः भयेन,
भयेन.
अधुना पूर्णं वाक्यं वदतु.
व्याघ्रं दृष्ट्वा, व्याघ्रं दृष्ट्वा पान्तः भयेन कम्पते स्म.
अवगतवान् वा वाक्यं किम्? इत्युक्ते तत्र एकः व्याघ्रः अस्ति. तं व्याघ्रं दृष्ट्वा पान्तः, पान्तः इत्युक्ते ट्रावेलर् अथवा किं वदामः अत्र, अन्यं पदं किम् इत्युक्ते ट्रावेलर् इति एव वदामः. ट्रावेलर् सः किं करोति? कम्पते स्म, भयेन कम्पते स्म. उत्तमं, धन्यवादः महोदय. अधुना कादम्बरी भगिनी भवती करोतु चतुर्थं वाक्यम्.
अस्तु. मरणवार्तां श्रुत्वा सा रोदनं कृतवती. मरणवार्तां श्रुत्वा सा दुःखेन रोदनं कृतवती.
अवगतवती वा वाक्यम्?
आम्.
अत्र पश्यतु, मरणवार्ता प्रथम अविभक्त्यन्तरूपं मरणवार्ता. परन्तु अत्र वार्ताम् इति लिखितमस्ति, किमर्थम्?
द्वितीयाविभक्ति.
सुन्दरं. तृतीय द्वितीयविभक्ति किमर्थमित्युक्ते अत्र अग्रिमं पदं किं? श्रुत्वा, दृष्ट्वा, श्रुत्वा. एतानि पदानि कानि? एतानि पदानि क्त्वा प्रत्ययान्तरूपाणि. यदि क्त्वा प्रत्ययान्तरूपम् अस्ति चेत् तस्मात् पूर्वं कर्मपदं सम्भवति. यथा भवती उक्तवती द्वितीयाविभक्तिः मरणवार्ताम्. परन्तु प्रथमाविभक्त्यन्तरूपं किम्? वार्ता, मरणवार्ता. उत्तमं. मरणवार्ता इति प्रथमाविभक्त्यन्तरूपम्. एका महिला अस्ति, सा किं कृतवती? मरणवार्तां श्रुत्वा सा दुःखेन रोदनं कृतवती. इत्युक्ते किम्? राजीवसिंह महोदय वदतु, वाक्यस्य अर्थः कः?
By listening the death news, she cries with grief.
Uttama. Atra krutavati iti padamasti. Parantu vayam pumlinge vadamasti, kim vadamaha? Krutavati iti padam trilinge, tavat pratyantrupam. परन्तु पुंलिङ्गे वदामश्चेत् किं वदामः?
सः रोदनं कृतवान्.
सुन्दरं, भवती जानाति. उत्तमम्, उत्तमम्. सा सः भगिनी पुंलिङ्गे वदतु तदेव वाक्यं चतुर्थं वाक्यं कादम्बरी भगिनी
मरणवार्तां श्रुत्वा सः दुःखेन रोदनं कृतवान्
सुन्दरं तादृशरीत्या वक्तव्यम् उत्तमं पञ्चमं करोतु
भवान् यत् करोति तत् करोतु भवान् यत् करोति तत् आनन्देन करोतु
एतत् वाक्यं सुन्दरं किल सुन्दरं वाक्यं चिन्तयतु एकवारं चिन्तयतु भवान् यत् करोति कथं करोतु आनन्देन करोतु अत्र भवान् यत् किमपि कर्तुमिच्छति तत् कार्यं सर्वदा आनन्देन करोतु इति अर्थः अत्र आनन्दः इति पदमस्ति आनन्दः इति पदं भाववाचकपदम् आनन्देन करोतु भवती करोति एव अहं जानामि अग्रिमं वाक्यं करोतु
किमपि कार्यं मा करोतु त्वया त्वया
भगिनी भगिनी अत्र पदमस्ति त्वरा
त्वरया किमपि कार्यं मा करोतु
इत्युक्ते किं राजीवसिंह महोदय भवान् वदतु अत्र वाक्यस्य अर्थः कः त्वरया किमपि कार्यं मा करोतु त्वरा इत्युक्ते त्वरा इत्युक्ते आङ्ग्लभाषायां हेस्टीलि हेस्टीलि इति अर्थः त्वरा इत्युक्ते इत्युक्ते किमपि कार्यं त्वरया मा करोतु डोण्ट् डु इट् इन् ए हर्रि डोण्ट् डु एनिथिङ्ग् इन् ए हर्रि त्वरया किमपि कार्यं मा करोतु सावधानतया करोतु इति अर्थः अत्र पदमस्ति भाववाचकपदं त्वरा तस्य तृतीयान्तं रूपं किं भगिनि पुनः वदतु अन्येषां कृते उत्तमं वाक्यं त्वरया मा करोतु सावधानतया सम्यक् चिन्तयित्वा करोतु इति अर्थः अनन्तरम् अत्र भावना भगिनी भवती करोतु अग्रिमं सप्तमं वाक्यं करोतु भगिनी अस्ति वा अत्र भावना भगिनी नो चेत् अत्र राजीवसिंह महोदय भवान् एव करोतु
सः अधिकारी तदा अपि व्यवहरति सः अधिकारी सदा अपि रुक्षतया व्यवहरति
सुन्दरम् सः अधिकारी कीदृशरीत्या व्यवहरति सर्वदा रुक्षतया इत्युक्ते यदि वयं किमपि कार्यालयं गच्छामः कार्यालयं गच्छामश्चेत् तत्र अधिकारी अस्ति अधिकारी इत्युक्ते आफीसर् आफीसर् अस्ति सः सदा कीदृशरीत्या व्यवहरति रुक्षतया व्यवहरति इत्युक्ते रुक्षतया इत्युक्ते अत्र कटुत्वम् अथवा परुषत्वं पारुष्यम् इति वदामः हार्ष् बिहेवियर् रुक्षता सः अधिकारी सदा रुक्षतया एव व्यवहरति कार्यालये इति अस्य अर्थः अग्रिमं करोतु
भौ रक्षकः भवन्तः भवनं रक्षन्तु
भगिनी
वदतु मा
अहं न आगतवती वृक्षतया इत्युक्ते किम्
वृक्षतया संस्कृतभाषायां पर्यायवाचकपदानि सन्ति कटुत्वं परुषत्वं पारुष्यम् इति पदानि सन्ति परन्तु आङ्ग्लभाषायां वदामि चेत् हार्श्नेस् रूड् बिहेवियर् हार्श् नाट् हम्बल् बिहेवियर् तस्य नाम अस्ति वृक्षता
I was unmute. I can read next time.
अस्तु भगिनि राजीवसिंह महोदय भवान् करोतु अधुना वाक्यं पठतु
भो रक्षकाः भवन्तः जागरूकतया भवनं रक्षन्तु
उत्तमम् अत्र भाववाचकपदं किम् जागरूकता आकारान्तपदं जागरूकता यथा चिन्ता आकारान्तपदं परन्तु भवान् उक्तवान् तृतीयान्तं रूपं किं
भौरक्षका
न अत्र जागरूकता इति पदस्य तृतीयान्तं रूपं किं
जागरूकतया
अत्र रक्षकाः इति पदमस्ति तस्य रूपं किम्
रक्षकः बहुवचन प्रथमा विभक्ति
इतोपि वदतु इतोपि किञ्चित् अस्ति स्टिल् मोर् सम्बोधनप्रथमरूपं
पुल्लिङ्ग् अकारान्
सुन्दरं
लिङ्ग्वचन
अकारान्त पुल्लिङ्ग बहुवचन सम्बोधनरूपं परन्तु कथं जानीमः सम्बोधनरूपम् अस्ति अत्र इति कथं ज्ञातुं शक्नुमः भोः रक्षकाः इति वक्तुमस्ति इत्युक्ते वयं पूर्वमेव पठितवन्तः सम्बोधनरूपाणि कथं भवन्ति इति अत्र प्रथमाविभक्ति एकवचनरूपम् एव भिन्नरूपं भवति परन्तु द्विवचनरूपं बहुवचनरूपं यथावत् तिष्ठन्ति सम्बोधनरूपाणि समानं यथावत् इत्युक्ते अत्र रक्षकाः इति पदं प्रथमाविभक्तिबहुवचनान्तरूपम् अपि च सम्बोधनरूपं भवन्तः जागरूकतया भवनं रक्षन्तु लकारः कः महोदय सुन्दरं लोट् लकारः किं रक्षन्तु
भवनं रक्षन्तु
भवनं रक्षन्तु उत्तमं भवनम् इति पदं कर्मपदम् अत्र अग्रिमं करोतु
मया किमपि वक्तव्यं नास्ति
मया इति पदं वयं पूर्वमेव चर्चितवन्तः तस्मिन् विषये अहं शब्दस्य तृतीयान्तं रूपं मया
मया विशेषतया किमपि वक्तव्यं नास्ति
अत्र उत्तमं महोदय सुन्दररीत्या उक्तवान् परन्तु अत्र मया विशेषतया किमपि वक्तव्यं नास्ति इति उक्तमस्ति तस्य अर्थः कः इत्युक्ते देर् इस् नथिङ्ग् वेरि स्पेशल् दट् ऐ शुड् से अबौट् दिट् मया विशेषतया किमपि वक्तव्यं नास्ति वक्तव्यम् इति पदम् अत्र तव्यत् प्रत्ययान्तरूपम् इति वदामः संस्कृतभाषायाम् अत्र तव्यत् अनियर् इति प्रत्ययद्वयम् अस्ति तव्यत् प्रत्ययान्तरूपम् अथवा अनियर् प्रत्ययान्तरूपं साधारणतया कर्मणि प्रयोगे एव सम्भवति परन्तु अत्र मया विशेषतया किमपि वक्तव्यं नास्ति. अग्रिमं करोतु.
रमा रमेशयौ विवाहः कार्य करोतु. सोरि, रमा रमेशयोः विवाहः प्रवर्तः. रमा रमेशयौ विवाहः वैभवेन प्रवर्तः.
प्रवृत्तः. प्रवृत्तः.
प्रवर्तः.
उत्तमम्. अत्र रमा रमेशयोः इति पदमस्ति, तस्य रूपं किम्?
रमेशयोः द्विवचनं.
उत्तमं.
द्वितीयविभक्ति.
अत्र पश्यतु, कयोः विवाहः प्रवृत्तः. कयोः विवाहः प्रवृत्तः अत्र? रमा रमेशयोः. रमा रमेशयोः. पुनः एकवारं चिन्तनं करोतु, कयोः विवाहः अभवत्?
रमा रमेशयोः विवाहः.
अधुना तस्य विभक्तिः का? द्विवचनमेव, परन्तु विभक्तिः का?
तृतीया विभक्ति.
षष्टि. षष्टिद्विवचनम्. षष्टिद्विवचनम् अस्ति. रमा रमेशयोः विवाहः प्रवृत्तः. कीदृशरीत्या अभवत्? वैभवेन. रमा रमेशयोः विवाहः वैभवेन प्रवृत्तः. वैभवेन अभवत्. उत्तमं. धन्यवादः महोदय. अनन्तरं भावना भगिनी भवती करोतु. अस्ति वा भगिनि? करोतु.
षष्ठे यवतु वा भवतु भवान कये कार्य करेतु.
अत्र पश्यतु भगिनि, अत्र पश्यतु, कष्टं प्रथमं पदमस्ति. कष्टं यावत्
यावत् भवतु भवान्
भवान्
संहान सहान कार्य करेतु.
अत्र पश्यतु भगिनि, अत्र पदानि कानि इत्युक्ते, भवान् कार्यं करोतु इति पदानि सन्ति. सहना आवरणे आवरणे दत्तं पदमस्ति सहना. अत्र कर्तुं शक्नोति वा? अत्र सम्यक् रीत्या आवरणे यत् पदं दत्तमस्ति तस्य परिवर्तनं कृत्वा वाक्यं पूरयतु.
कष्टं यावत् भवतु
सहना इति पदं दत्तमस्ति तस्य परिवर्तनं कृत्वा पुनः एकवारं वाक्यं पठतु.
कष्टं यावत् वा भवतु भवान् सहना करेतु.
अत्र सम्यक् वक्तव्यं न भगिनी, तथा न भवती शृणोतु, तादृशरीत्या न भवति. उमाशङ्करमहोदय भवान् करोतु तदेव वाक्यं. महोदय करोति वा?
कष्टं यावत् वा भवतु भवान् सगनेन
अत्र सहना इति पदस्य तृतीयान्तं रूपं सम्यक् वदतु.
सगन्या.
सहनया. सुन्दरं. सहनया. अत्र पश्यन्तु, सर्वे पश्यन्तु कियत् सुन्दरं वाक्यम् एतत् वाक्यं कष्टं यावत् वा भवतु भवान् सहनया कार्यं करोतु. अत्र राजेशन् महोदय भवान् आङ्ग्लभाषया अनुवादं कृत्वा वदतु. कष्टं यावत् वा भवतु.
When you have pain, tolerate it and work.
Sundaram, sundaram. Kastam yavatva bhavatu, bhavan sahanaya karyam karotu. Kiyat sundarani vakyani atra. Umashankar Mahoday, agrimam karotu.
Yetam vatkam sutva sa dash me.
अत्र पदमस्ति निःश्वसितवती. भवान् श्रुतवान् वा निःश्वासः इति पदं जानाति भवान्? निःश्वासः तथा एव अत्र निःश्वसितवती तथा एव संस्कृतभाषायाम् अन्यं पदमस्ति विश्वसितवती, परन्तु अत्र निःश्वसितवती इति दत्तमस्ति. अत्र निःश्वासः इति वदामः तथा एव तत्पदम् आगतं. परन्तु अत्र पूर्वं वाक्यमस्ति, तस्य अर्थं भवान् अवगतवान् वा? Did you understood the previous sentence, महोदय?
नियतं वार्तं श्रुत्वा सा
पूर्वस्मिन् वाक्ये पूर्वस्य वाक्यस्य अर्थः अर्थं जानाति वा?
कष्टं यावत् वा भवान् उत्तमम्
अधुना करोतु. एतत् वाक्यं करोतु.
एतां वार्तां श्रुत्वा स तृप्त्या निःश्वासितवती.
सुन्दरम्. अत्र आवरणे किं पदं दत्तमस्ति?
तृप्ति.
तृप्तिः.
तृप्तिः.
तृप्तिः इत्युक्ते संस्कृतभाषायां अत्र इकारान्त स्त्रीलिङ्गपदं तृप्तिः, यथा मतिः, गतिः, स्थितिः, तृप्तिः तथा इकारान्त स्त्रीलिङ्गपदानि बहूनि सन्ति, परन्तु अत्र तृप्तिः इति पदं दत्तमस्ति इकारान्त स्त्रीलिङ्गपदं यथा मतिः. तृप्तिः इति पदस्य तृतीयान्तं रूपं किम्?
तृप्त्या.
सुन्दरम्. अन्तिमं भवान् एव करोतु.
अध्यापकस्य
अग्रिमम्
अध्यापकस्य तर्जनं श्रुत्वा सा
अवनमय्य इति पदम् अस्माकं कृते नूतनं पदम् अवनमय्य इति पदम्, परन्तु अत्र अग्रे गत्वा वयं पठिष्यामः ल्यबन्तरूपाणि. श्रुत्वा इति पदं त्वान्तरूपं, परन्तु अवनमय्य इति पदं ल्यप् प्रत्ययान्तरूपम्. एतेषां विषये अभ्यासपुस्तके एव वयम् अग्रे गत्वा पठिष्यामः. अवनमय्य शिरः अवनमय्य इति पदम् अत्र करोतु महोदय. पदम् आवरणे पदमस्ति, तस्य परिवर्तनं कृत्वा वदतु.
लज्जा. लज्जा. लज्जेन.
पश्यतु अत्र लज्जा इति पदमस्ति, कीदृशं पदम्?
आकारान्त
स्त्रीलिङ्गपदम्. तदा किं भवति तृतीयान्तं रूपं किं भवति?
लज्जया.
सुन्दरं करोतु अधुना करोतु न न न महोदय अत्र तदेव वाक्यं पुनः एकवारं वदतु
अध्यापकस्य तर्जनं श्रुत्वा सा लज्जया शिरः अवनमय्य स्थितवती
अत्र इत्युक्ते किम् अत्र एका पाठशाला अस्ति पाठशालायाम् एका बालिका अस्ति सा बालिका किं कृतवती बालिका किं कृतवती शिरः सा बालिका शिरः अवनमय्य स्थितवती किमर्थम् अध्यापकः तर्जनं कृतवान् द टीचर् स्कोल्डेड् हर् अत्र तर्जनम् इत्युक्ते तर्जयति इत्युक्ते स्कोल्डिङ्ग् अध्यापकस्य तर्जनं श्रुत्वा सा बालिका किं कृतवती शिरः अवनमय्य स्थितवती कादम्बरी भगिनी भवती आङ्ग्ल अनुवादं करोतु एतस्य वाक्यस्य अर्थः कः अत्र एका पाठशाला अस्ति पाठशालायाम् एका बालिका अस्ति सा किं कृतवती शिरः अवनमय्य स्थितवती किमर्थम् अध्यापकः तां तर्जनं कृतवान् अतः इत्युक्ते किं
सा लज्जया शिरः अवनमय्य स्थितवती
सा बालिका इत्युक्ते आङ्ग्लभाषायां किं वदामः अस्य अर्थः कः अत्र राजीवसिंहमहोदय भवान् वदतु भवती वदति वा शी वदतु
She bent down in shame.
उत्तमं किमर्थम् The teacher
अध्यापकस्य तर्जनं श्रुत्वा
अधुना राजीवसिंह महोदय भवान् वदतु आङ्ग्लभाषायां किं वदामः अस्य अर्थः कः वदतु महोदय
बै आफ्टर् गेटिंग स्कोल्डेड बै
वदतु
आफ्टर् गेटिंग स्कोल्डेड बै द टीचर she covered her head or
she put her head down अत्र पश्यन्तु अत्र सर्वेषां कृते वदामि अत्र बहु शब्दः अस्ति उमाशङ्करमहोदय भवतः दूरवाणी बहु ध्वनिः अस्ति अधुना सर्वे पश्यन्तु अत्र शिरः इति पदमस्ति भवन्तः किं चिन्तयन्ति अत्र शिरः इति पदस्य रूपं किं कादम्बरी भगिनी ऊहां करोतु शिरः इति पदं तस्य रूपं किं लिङ्गं किं सुन्दरम् अपि च लिङ्गं किं
पुल्लिङ्गं
चिन्तयतु भगिनी भवती प्रयत्नं कृतवती परन्तु वयम् अग्रे गत्वा हलन्तपदानि पठिष्यामः शिरः इति पदं हलन्तपदं न तु अजन्तपदं परन्तु रामः इति पदम् अजन्तपदम् इत्युक्ते रामपदं राम इति पदम् अकारान्तपुंलिङ्गपदम् परन्तु अत्र शिरः इति पदमस्ति रामः शब्दवत् नास्ति शिरः इति पदं सकारान्तपदम् अत्र रूपाणि कथं भवन्ति नपुंसकलिङ्गपदम् रूपाणि कथं भवन्ति शिरः शिरसि शिरांसि तथा भवन्ति रूपाणि यथा मनः मनसि मनांसि इत्युक्ते पदम् अत्र शिरः इति पदं हलन्तपदम् इत्युक्ते सकारान्तपदं दन्त्यसकारः. अत्र पश्यतु सा इति पदमस्ति, सा तत्र सा इति पदे सकारः दन्त्यसकारः. तथा एव अत्र शिरः इति पदं सकारान्तपदं शिरः शिरसि शिरांसि किञ्चित् नूतनं पदम् अस्माकं कृते. अवनमय्य अवनमति. कुत्र ल्यबन्तरूपाणि आगच्छन्ति इत्युक्ते यत्र यत्र उपसर्गः अस्ति तत्र ल्यबन्तरूपं सम्भवति. अत्र अव इति पदम् उपसर्गः, अतः अवनमति इति पदस्य ल्यबन्तरूपम् अवनमय्य इति ल्यबन्तरूपम्. भगिनी अवगतवती वा अत्र शिरः इत्यस्मिन् पदस्य विषये? सकारान्तपदं न तु अकारान्त, परन्तु भवती किञ्चित् ऊहां कृतवती, परन्तु रामशब्दवत् नास्ति. अधुना करोतु महोदय, उमाशङ्करमहोदय भवान् करोतु अग्रिमं वाक्यम्. महोदय
सः इति गोविन्दः रामं पृष्टवान्. खगसः इति गोविन्दः कुतूहलेन
करोतु, पूरयतु वाक्यं, वाक्यं पूरयतु.
खगसः इति गोविन्दः कुतूहलेन रामं पृष्टवान्.
सुन्दरं. कुतूहलम् इति पदं, कुतूहलम् इति पदं लिङ्गं किं महोदय?
कुतूहलं
सुन्दरं सुन्दरम्. अत्र वाक्यस्य अर्थः कः एकवारं वदतु. कः सः इति गोविन्दः कुतूहलेन रामं पृष्टवान्. कः पृष्टवान्?
कुतूहलेन
कः पृष्टवान्?
गोविन्दः.
कं पृष्टवान्?
रामं.
रामं कीदृशरीत्या पृष्टवान्? कुतूहलेन. इत्युक्ते अत्र कुतूहलम् इति पदं भाववाचकपदं, यत्र यत्र भाववाचकपदानि आगच्छन्ति तत्र तृतीयाविभक्तेः रूपं सम्भवति. अस्मिन् वाक्ये वयं पूर्वमेव पठितवन्तः इति इत्यस्मिन् विषये. सः कः इति गोविन्दः पृष्टवान् रामम् उद्दिश्य. इत्युक्ते किम्? अत्र राजीवसिंह महोदय भवान् वदतु आङ्ग्लानुवादम्. सः कः इति गोविन्दः रामं पृष्टवान् कुतूहलेन.
Who is he? Iti Govind. Govind jokingly asked Ram, who is he?
Uttama. Atra kutuhalam. Kutuhalam ichukte joking nasti. Joke nasti. Kutuhalam ichukte inquisitively. Curiosity. Okay. With curiosity. Okay. उत्तमम्. अत्र कुतूहलम् इत्युक्ते क्यूरियासिटि इति वदामः. अत्र गोविन्दः कुतूहलेन रामं पृष्टवान्. अन्तिमं करोतु महोदय, उमाशङ्कर महोदय.
पराजयं प्राप्य सः प्रतिगतवान्. पारायणं प्राप्य प्राप्यसग निराशया प्रति गतवान्।
अत्र पश्यतु महोदय, प्रथमं पदमस्ति, प्रथमं पदमस्ति पराजयम्,
पराजयम्
पराजयं प्राप्य, प्राप्य वयं जानीमः संस्कृतभाषायाम् एकं क्रियापदमस्ति प्राप्नोति, प्राप्नोति इति पदस्य तत्र प्राप्नोति इति पदम् अस्ति, तस्य ल्यबन्तरूपं प्राप्य। अत्र अस्मिन् वाक्ये कर्मपदमस्ति पराजयम्, पराजयम् इति पदं द्वितीयान्तं रूपं, पराजयः प्रथमान्तं रूपं, पराजयं प्राप्य, प्राप्य इति पदं ल्यबन्तपदं, यत्र यत्र ल्यबन्तपदम् अथवा क्त्वान्तपदं सम्भवति तत्र कर्मपदं सर्वदा भवति एव, अतः पराजयं प्राप्य सः किं कृतवान्? निराशतया,
निराशतया।
अत्र पदं पश्यतु, निराशता इति पदमस्ति, यथा सीता, सीतापदं, परन्तु अत्र पदं किञ्चित् दीर्घं पदमस्ति, सीता इति पदं सरलपदं, परन्तु अत्र निराशता इति पदमस्ति, तस्य तृतीयान्तं रूपं किं भवति?
निराशतया।
सुन्दरं, निराशतया, यथा अत्र जागरूकता, जागरूकतया, तथा एव रुक्षता, रुक्षतया, तथा भवति। उत्तमम्, उत्तमं महोदय। अनन्तरम् अत्र अस्माकं पार्श्वे बहूनि अन्यानि करपत्राणि सन्ति, परन्तु अधुना दशवादनम् अभवत्, यदि भवन्तः इच्छन्ति चेत् अग्रिमं करपत्रं कुर्मः, नो चेत् विरमाम। भवन्तः किं चिन्तयन्ति, अग्रिमं करपत्रम् एकं कुर्मः वा, नो चेत् अत्र स्थगयामः वा? भगिनी वदतु, कादम्बरी भगिनी, भवती किं चिन्तयति?
अहं न जानामि भगिनि।
अत्र राजेशसिंह महोदय, भवान् किं चिन्तयति, इतोपि एकं करपत्रं कुर्मः वा, नो चेत् अत्र विरमाम?
I think we can do it in next class.
अस्तु महोदय, उत्तमम्, अधुना अत्र स्थगयाम, विरमाम, उत्तमम्। अधुना दशवादनम् अभवत्, अत्र स्थगयाम, परन्तु कानिचन करपत्राणि सन्ति, अग्रिमे सप्ताहे पुनः मिलित्वा पठिष्यामः, तृतीयाविभक्तेः विषये एव पुनः एकवारं चिन्तनं कुर्मः। धन्यवादः।
धन्यवादः भगिनि।
नमस्कारः, धन्यवादः।
उत्तमम्।